धूपः जगत्या मोदजातं यद्यस्वादाघ्रेयताङ्गतम् आघ्राणार्थम् ददे तस्मै धूपम् श्रीपादरूपिणे भगवते श्रीदत्तात्रेय परब्रह्मणे नमः धूपमाघ्रापयामि दीपः यद्भासा भासते वह्निः सूर्या चन्द्रमसौ तटित् घृतदीपम् प्रदास्यामि तस्मै सद्गुरवे नमः भगवते श्रीदत्तात्रेय परब्रह्मणे नमः दीपम् दर्शयामि नैवेद्यम् समानक्षीरकदळीशर्कराज्यसमन्वितम् गौधूमचूर्णपक्वान्न मेलादिफलमिश्रितम् अन्नम् चतुर्विधम् स्वादुरसैः षड्भिः समन्वितम् भक्ष्यभोज्यसमायुक्तम् नैवेद्यम् प्रतिगृह्यताम् भगवते श्रीदत्तात्रेय परब्रह्मणे नमः नैवेद्यम् निवेदयामि ताम्बूलम् पूगीफलैः सकर्पूरैर्नागवल्लीदलैर्युतम् मुक्ताचूर्णसमायुक्तम् ताम्बूलम् प्रतिगृह्यताम् भगवते श्रीदत्तात्रेय परब्रह्मणे नमः ताम्बूलम् समर्पयामि नीराजनम् नीराजितम् सुरगणैरकृषिभिर्दीपराजिभिः देवमार्तिक्यदीपेन गुरुम् नीराजयाम्यहम् अनन्तताराग्रहनित्यसम्भ्रमप्रकल्पितारार्तिकवैभवाय तुभ्यम् विराड्रूपधराय सद्गुरो कर्पूरनीराजनमातनोमि भगवते श्रीदत्तात्रेय परब्रह्मणे नमः नीराजनम् सन्दर्शयामि मन्त्रपुष्पम् दत्तात्रेयम् ब्रह्मविद्यासंवेद्यानन्दवर्धनम् आत्ममायारतम् देवम् सद्गुरुम् प्रणमाम्यहम् काषाय वस्त्रम् करदण्डधारिणम् कमण्डलुम् पद्मकरेण शङ्खम् चक्रम् गदाभूषितभूषणाढ्यम् श्रीदत्तराजम् शरणम् प्रपद्ये श्रीदत्तात्रेय परब्रह्मणे नमः मन्त्रपुष्पम् समर्पयामि नमस्कारः यत्पादपद्ममरा निजमूर्धक्लुप्तसद्रत्नवन्मकुटकोटिभिरानमन्ति तम् स्वाङ्घ्रिलग्नजनतार्तिहरम् दजाडुम् श्रीसद्गुरुम् भजहरम् शिरसा नमामि भगवते श्रीदत्तात्रेय परब्रह्मणे नमः नमस्कारम् समर्पयामि प्रदक्षिणम् स्वर्भूपातालोकेषु यः पर्यटति नित्यशः प्रदक्षिणम् करोमीह सद्गुरुम् पादचारतः भगवते श्रीदत्तात्रेय परब्रह्मणे नमः प्रदक्षिणम् समर्पयामि प्रार्थनम् पापोऽहम् पापकर्माहम् पापात्मा पापसम्भवः त्राहि माम् कृपया देव शरणागतवत्सल अन्यथा शरणम् नास्ति त्वमेव शरणम् मम तस्मात्कारुण्यभावेन रक्ष रक्ष जगद्गुरो भगवते श्रीदत्तात्रेय परब्रह्मणे नमः प्रार्थनम् समर्पयामि पूजान्ते छत्रमाच्छादयामि चामरे वीजयामि गीतम् श्रावयामि वाद्यम् घोषयामि नृत्यम् दर्शयामि आन्दोलिकामारोहयामि गजानारोहयामि अश्वानारोहयामि समस्तराजोपचारदेवोपचारभक्त्युपचारशक्त्युपचार षोडशोपचार पूजाम् समर्पयामि यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु न्यूनम् सम्पूर्णताम् याति सद्यो वन्दे तमच्युतम् मन्त्रहीनम् क्रियाहीनम् भक्तिहीनम् महेश्वर यत्पूजितम् मया देव परिपूर्णम् तदस्तु ते अनया मया कृतया ध्यानावाहनादिषोडशोपचारपूजया भगवान् त्रिमूर्त्यात्मकः श्रीदत्तात्रेयः सुप्रीणातु एतत्फलम् सर्वम् श्रीपरमेश्वरार्पणमस्तु मध्ये स्वरवर्णध्याननियमलोपप्रायश्चित्तार्थम् नामत्रयमन्त्रजपम् करिष्ये।